इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। बिहार विधानसभायाः निर्वाचने त्रिचत्वारिंशोत्तर द्विशतासनानां सभायां द्वयाधिक द्विशतासनानि जित्वा एनडीए इति सत्तारूढ राष्ट्रिय लोकतांत्रिक संघटनेन बहुमतं प्राप्तम्। निर्वाचनायोगेन गतरात्रौ सर्वेषां निर्वाचनक्षेत्राणां परिणामानां घोषणा कृता। राज्ये सर्वकारस्य निर्माणं कर्तुं कस्यापि दलं संघटनं वा केवलं द्वाविंशत्यधिकैकशतासनानि आवश्यकानि भवन्ति। भाजपेति दलं ऊननवति आसनानि जित्वा बृहत्तम दलत्वेन उद्भूतः। अस्य मित्रदलं मुख्यमन्त्रिणः नीतीशकुमारस्य नेतृत्वे जनतादल युनाइटेड दलं 85 आसनानि प्राप्तम्। केन्द्रीयमन्त्रिणः चिरागपासवानस्य नेतृत्वे लोकजनशक्ति रामविलासदलं 29 आसनानि प्राप्तम्। पूर्वमुख्यमन्त्रिणः जीतनराममांझी इत्यस्य नेतृत्वे हिन्दुस्तानी आवाममोर्चा सेक्युलर दलं 5 आसनानि, उपेन्द्रकुशवाहा इत्यस्य नेतृत्वे राष्ट्रियलोकमोर्चा दलं च 4 आसनानि विजिते। आरजेडी दलस्य नेतृत्वे महागठबन्धनेन केवलं 35 एव विजितम्। आरजेडी इति राष्ट्रियजनतादलेन 25 आसनानि, कांग्रेसदलेन 6 आसनानि, भारतीय साम्यवादी मार्क्सिस्ट लेनिनिस्ट लिबरेशन दलेन 2 आसने, सीपीआईएम तथा भारतीय समावेशक दलेन च एकैकम् आसनं विजितम्। हैदराबाद नगरस्य सांसदः असदुद्दीन ओवैसी इत्यस्य नेतृत्वे एआईएमआईएम इत्यनेन दलेन 5 आसनानि प्राप्तानि। बहुजन समाज दलेन वीएसपी इत्यनेन एकं स्थानं प्राप्तम्। तत्रैव प्रशांत किशोरस्य जनसुराज दलेन बिहार निर्वाचने एकमपि स्थानं न प्राप्तम्। सप्तराज्यानां 8 निर्वाचनक्षेत्रेषु आयोजितेषु विधानसभा उपनिर्वाचने कांग्रेस भाजपा दले 2 आसने विजितवन्तौ। आम आदमी दलं, पीडीपी, मिजो नेशनल फ्रंट दलं, जेएमएम इत्येतत् दलं च एकम् एकम् स्थानं प्राप्तवन्तः। भाजपेति दलस्य वरिष्ठः नेता तथा प्रधानमन्त्री नरेन्द्रमोदी, भाजपाध्यक्षः जगत प्रकाश नड्डा, दलस्य वरिष्ठः नेता अमितशाहः च बिहारस्य जनान् ऐतिहासिका भूतपूर्वाय च जनादेशाय धन्यवादं प्रदत्तवन्तः। नवदिल्ल्याः भाजपा मुख्यालये दलस्य सदस्यान् सम्बोधयन् प्रधानमन्त्री श्रीमोदी अवदत् यत् बिहार विधानसभा निर्वाचने विजयः विकासस्य राजनीतेः अभवत्। जनाः परिवारस्य राजनीतिम् अस्वीकृतवन्तः।
बिहार ने ये सुनिश्चित किया है, बिहार की महान भूमि पर फिर कभी जंगल राज की वापसी नहीं होने वाली। ये जीत बिहार की उन माताओं, बहनों और बेटियों की है जिन्होंने सालों तक आरजेडी के शासन में जंगल राज का आतंक झेला है। ये जीत बिहार के उस नौजवान की है जिसके भविष्य को कांग्रेस और लाल झंडे वालों के आतंक के कारण बर्बाद किया गया।
बिहारस्य मुख्यमंत्री नीतीश कुमारः एनडीए इत्यस्य सर्वान् घटक दलान् तेषां नेतृन् च प्रति कृतज्ञतां प्रकटितवान्। सः अवदत् यत् राज्यस्य जनाः राज्य विधानसभा निर्वाचने एनडीए पक्षाय बहुमतं दत्त्वा संयुक्त सर्वकारे स्वस्य विश्वासं प्रदर्शितवन्तः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य गुजरात राज्यस्य यात्रायां भविष्यति। यात्रावधौ श्रीमोदी सूरतनगरे निर्माणाधीनं बुलेट रेल स्थानकं गत्वा मुम्बई अहमदाबाद द्रुत रेलमार्गस्य प्रगत्याः समीक्षां करिष्यति। पश्चात् प्रधानमन्त्री नर्मदामण्डलस्य देवमोगरा मन्दिरे पूजार्चनां च विधास्यति। सः डेडियापाडा अपि गमिष्यति तथा च धरती आबा भगवान् बिरसा मुण्डा वर्यस्य सार्धैकशततमस्य जन्मदिवसस्यावसरे आयोजिते कार्यक्रमे भागमपि ग्रहीष्यति। इति वार्ताः।